अस्तु, अस्माकं नूतनन्यायवर्गे सर्वेषां पुनः स्वागतम्। अद्यतनवर्गे केचन नूतनाः अपि सन्ति इति कृत्वा किञ्चित् पुनरावर्तनरीत्या न्यायशास्त्रस्य परिचयं दत्त्वा अग्रे गच्छामि। तत्र अस्माभिः प्रथमवर्गे किं दृष्टम् इति चेत्, न्यायशास्त्रम् इत्युक्ते किम् इत्यस्य विषये काचित् चर्चा जाता। तर्हि न्यायशास्त्रे वयं किं किम् अध्येतुं शक्नुमः इत्यस्य विषये, न्यायशास्त्रम् इति भारतीयदर्शनशास्त्रेषु अन्यतमं शास्त्रं, यथा वयं जानीमः साङ्ख्ययोगन्यायमीमांसा अपि च वेदान्त इत्यादि शास्त्राणि सन्ति, तेषु न्यायशास्त्रम् इति अन्यतमं शास्त्रमस्ति। अपि च न्यायशास्त्रम् इति आस्तिकदर्शनशास्त्रमस्ति। न्यायशास्त्रे वेदस्य प्रामाण्यं मन्यते, वेदः प्रमाणत्वेन स्वीक्रियते न्यायशास्त्रे इति कृत्वा न्यायशास्त्रे तस्य प्रामाण्यं मन्यते इति न्यायशास्त्रम् आस्तिकदर्शनशास्त्रमस्ति, न तु नास्तिकदर्शनशास्त्रम् इति एकः विचारः। तर्हि नैयायिकाः इत्युक्ते ये न्यायशास्त्रं प्रतिपादयन्ति, तेषाम् आशयः कः इत्यस्य विषये किञ्चित् चर्चयामः। न्यायशास्त्रे किं कुर्वन्ति इति चेत्, जगति यावन्ति वस्तूनि सन्ति, जगति अनेकानि वस्तूनि सन्ति, तर्हि यावन्ति वस्तूनि सन्ति जगति, तेषां विशदरीत्या विश्लेषणम् अथवा अनालिसिस् इति भवति न्यायशास्त्रे। तद् नैयायिकाः किं कथं कुर्वन्ति इति चिन्तनीयं भवति। न्यायशास्त्रे श्रेणीकरणद्वारा जगति यावन्ति वस्तूनि सन्ति तेषां कथञ्चित् श्रेणीकरणं, केटेगरैजेशन् कृत्वा कृत्वा नैयायिकाः जगतः वस्तूनां विश्लेषणं कुर्वन्ति, येन अस्माकं बुद्धिः विशदा भवेत् इति। तर्हि एतत् सर्वं यद् मया उच्यते तद् विद्याधरीग्रन्थस्य प्रथमपुटे अथवा द्वितीयपुटे प्राप्यते, पुनः तस्य पठनं भवतु इति। अनन्तरं न्यायशास्त्रे यथा मया उक्तं, जगतः विश्लेषणं भवति श्रेणीकरणद्वारा इति। तर्हि नैयायिकाः श्रेणीं कथं रचयन्ति इत्युक्ते, जगति यावन्ति वस्तूनि सन्ति ते सर्वे सप्तपदार्थाः इत्यस्यां श्रेण्याम् अन्तर्भूतानि भवन्ति इति। तर्हि न्यायशास्त्रानुगुणं तृतीयपुटे पश्यन्तु, विद्याधरीग्रन्थस्य न्यायशास्त्रानुगुणं कति पदार्थाः इति चेत् सप्तपदार्थाः, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः सन्ति न्यायशास्त्रे। तर्हि एतद् विभजनम् इत्युक्ते जगति यावन्ति वस्तूनि सन्ति तानि सप्तपदार्थेषु अन्तर्भूतानि इति कथं विभजनं कुर्वन्ति, इदं द्रव्यम्, अयं गुणः, इदं कर्म इति कथं कुर्वन्ति इत्यस्य विषये किञ्चित् चिन्तनं कुर्मः। अस्तु, नैयायिकाः किं कुर्वन्ति इति चेत्, गुणः इति एकं पदार्थं स्वीकृत्य यस्मिन् गुणः वर्तते तद् द्रव्यम् इति नामकरणम् अथवा संज्ञाकरणं कुर्वन्ति। विद्याधरीग्रन्थस्य प्रथमपृष्ठे अस्ति, पश्यन्ति चेत् द्रव्यम् इति दर्शयित्वा द्रव्ये गुणः अस्ति इति प्रदर्शितम्। द्रव्यम् इत्यस्यां श्रेण्यां पृथ्वी, जलं, तेजः, वायुः, आकाशः, कालः, दिग्, आत्मा च मनः, इमानि अन्तर्भूतानि सन्ति। तर्हि तत्र पश्यामः चेत् पृथ्वी इति एकं द्रव्यं, तस्मिन् गन्धः इति गुणः वर्तते, जलम् इति एकं द्रव्यं, तस्मिन् शैत्यम् इति गुणः वर्तते, तेजः इति एकं द्रव्यं, तस्मिन् औष्ण्यं, वायुः इति द्रव्यं, तस्मिन् स्पर्शः, आकाशः इति द्रव्यं, तस्मिन् शब्दः, कालः इत्यस्मिन् सङ्ख्या, दिक् इत्यस्मिन् अपि सङ्ख्या, आत्मा इति एकं द्रव्यं, तस्मिन् ज्ञानं, मनः इति अपि एकं द्रव्यं, तस्मिन् सङ्ख्या इति गुणः वर्तते इति ते वदन्ति तर्हि द्रव्यम् इति एकः पदार्थः, गुणः इति एकः पदार्थः न्यायशास्त्रे. तर्हि गुणम् आदाय, गुणं स्वीकृत्य तादृशपदार्थः गुणः यद् बहुषु वर्तते, बहुषु द्रव्येषु वर्तते किल, तर्हि तादृशपदार्थं स्वीकृत्य यस्मिन् गुणः वर्तते तद् द्रव्यम् इति नामकरणं कुर्वन्ति. तद्वदेव सप्तपदार्थाः निर्मीयन्ते, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः. अस्तु, अत्र कोऽपि प्रश्नः वा कस्यचित्, अथवा अग्रे सरेम? अस्तु, समीचीनं. तर्हि यत् सर्वं यद् मया उक्तं तद् विद्याधरी पुस्तकस्य प्रथमपुटे, द्वितीयपुटे अस्ति. अपि च न्यायशास्त्रस्य ग्रन्थाः सामान्यतया विभजिताः भवन्ति त्रिषु भागेषु. प्रथमः भागः अस्ति उद्देशभागः इति, अथवा उद्देशग्रन्थः इत्यपि उच्यते. द्वितीयः भागः अस्ति लक्षणम् इति. तृतीयः परीक्षा इति. उद्देशः इत्यस्मिन् भागे केवलं नाम्ना सङ्कीर्तनं क्रियते, इत्युक्ते उद्देशः इत्यस्मिन् भागे द्रव्यं, गुण, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थानां कथनं, नाम्ना सङ्कीर्तनम् इति भवति. सः एव भागः उद्देशः अथवा उद्देशग्रन्थः इत्यपि उच्यते. द्वितीयः भागः अस्ति लक्षणम् इति. लक्षणम् इत्यस्मिन् भागे येषां पदार्थानां कथनं जातम् उद्देशभागे, तानि स्वीकृत्य तस्य लक्षणं किम् इति परिशीलनं क्रियते. अस्तु, द्रव्यम् इति उद्देशः जातः चेत् द्रव्यम् इति कथं वक्तुं शक्नुमः गुणेन, यस्मिन् गुणः तस्मिन्, यस्मिन् गुणः अस्ति तद्द्रव्यं, तादृशलक्षणस्य विचारः भवति लक्षणभागे. उद्देशभागः, लक्षणभागः इति विभजनद्वयं जातं न्यायशास्त्रस्य ग्रन्थानां. तृतीयः भागः अस्ति परीक्षा इति. परीक्षाभागे तु यदि गुणः अस्ति द्रव्ये, तर्हि गुणः कुत्र अस्ति, गुणः सर्वत्र वर्तते वा अथवा एकदेशे वर्तते वा इत्यादीनां चिन्तनं परीक्षाभागे. परीक्षया विचारः परिपूर्णः भवति. अस्माकं ग्रन्थः अस्ति विद्याधरी इति. वस्तुतः विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहः इति ग्रन्थस्य व्याख्या अस्ति. तर्कसङ्ग्रहः इत्यस्मिन् ग्रन्थे भागद्वयं वर्तते, उद्देशभागः अपि च लक्षणभागः, तावदेव. इति कृत्वा विद्याधरी इत्यस्मिन् ग्रन्थे अपि भागद्वयमेव, उद्देशः, लक्षणम्. अनेनापि वयं बहु किमपि ज्ञातुं शक्नुमः न्यायशास्त्रस्य विषये. परीक्षा इति भागः अस्मिन् न अन्तर्भूतः इति वार्ता अस्ति. अस्तु, तर्हि इतः अग्रे सरेम. केनचित् आगतं वा नूतनतया?
आम्, अत्र ज्योति अस्मि भगिनि.
नमस्कार भगिनि.
नमस्कार.
अस्तु, तर्हि एतावता किञ्चित् परिचयः जातः न्यायशास्त्रविषये. अधुना अग्रे सरेम, तृतीयपृष्ठं.
भगिनि, द्रव्याणि कानि सन्ति?
आना भगिनी तृतीयपुटं पश्यति. द्रव्याणि कानि सन्ति इति पृच्छति वा?
आम्.
अस्तु, प्रथमपुटं पश्यतु, विद्याधरीग्रन्थस्य पी डी एफ़् इति मया प्रेषितं खलु ई पत्रे.
आम्.
तत्र प्रथमपुटं पेज् 1 इति पश्यतु.
ओके, पृथिवी, जलं, तेज, वायुः, आकाश, काल, दिक्, आत्मा, मानः, दिस्.
हा, एतानि द्रव्याणि.
दिक् दिक् किम् इत्युक्ते? दिक्
दिक् इत्युक्ते डैरेक्षन् भगिनि.
ओके, अस्तु, धन्यवादः.
हा, द्रव्यमिति एकः पदार्थः, यथा मया उक्तं श्रेणीकरणं, केटगरैजेशन्. द्रव्यमिति एकं केटगरि अस्ति. द्रव्यम् इत्यस्मिन् केटगरि अथवा श्रेण्याम् इमानि नवद्रव्याणि सन्ति. गुणः इति एकः पदार्थः, पुनः गुणः इति अपि तृतीयपुट पश्यन्तु, पेज् 3 इति पश्यतु, तत्र सप्तपदार्थाः के?
सप्त
वाट् एवर् इस् इन् बोल्ड् अण्ड् इटालिक्स् भगिनि, केन् यु रीड् इट्?
श्लोक
इन् द तृतीयपृष्ठे, इन् द थर्ड् पेज्, केन् यु सी द्रव्यं, गुणः, कर्म?
द्रव्यं, गुणः, कर्म, सामान्य विशेष समवय अभाव अभावः सप्तपदार्थाः.
समीचीनं, सप्तपदार्थाः, दीस् आर् द सेवेन् केटेगरीस् इन् न्याय. तर्हि जगति यावन्ति वस्तूनि सन्ति, वाट् एवर् आब्जेक्ट्स् आर् देयर् इन् द वर्ल्ड्, दे आर् केटेगरैस्ड् इन् टु दीस् सेवेन् केटेगरीस्. अस्तु,
ओके, अस्तु.
नैयायिकाः तथा विश्लेषणं कुर्वन्ति जगतः, दट्स् हौ दे अनलैज् एव्रिथिङ्ग् इन् द वर्ल्ड् थ्रू लाजिक् केटेगरैसेशन्. तर्हि अस्य विषये अद्य अस्य विषये एव न्यायशास्त्रम् इति. हा, अस्तु, तर्हि सप्तपदार्थाः सन्ति, तेषु द्रव्यम् इति अन्यतमपदार्थः. अधुना आना भगिनी यत् पठितवती द्रव्यगुणकर्म इति, सप्तपदार्थानां नाम्ना सङ्कीर्तनम् इत्युक्ते नाम्ना कथनं तावदेव अस्ति, नाम्ना कथनम्, अनेन उद्देशभागः आरभ्यते. उद्देशभागे केवलं नाम्ना सङ्कीर्तनम् अथवा कथनं भवति इति. इतः अग्रे गत्वा तृतीयपुटे पश्यन्तु, आधाराधेयभावव्यवस्थापनम् इति अस्ति. एतदपि अस्माभिः किञ्चित् पूर्वमेव दृष्टमस्ति, तर्हि पुनरावर्तनरीत्या. वेणुगोपालमहोदय अस्ति वा?
अस्मि भगिनि.
तत्र पश्यतु महोदय, तत्र किम् अस्ति चित्रे?
चित्रे आसनम् आधारः अस्ति, यज्ञदत्तः आदेयः अस्ति.
समीचीनं महोदय, आसनं यज्ञदत्तः आसने उपविष्टः, आसनम् इति आधारः अथवा अधिकरणं. तस्मिन् विद्यमानभावः कः?
विद्यमानभावः
यथा वदामः सुन्दरे सुन्दरथा,
अस्तु अस्तु अस्तु, आदेयः आधेयता,
अधिकरणे अधिकरणता. अस्तु, एना भगिनी अवगच्छति वा किञ्चित्?
न.
अस्तु, आसनम् इत्युक्ते यज्ञदत्तः इन् द पिक्चर्, यज्ञदत्तः उपविष्टः अस्ति, यज्ञदत्तः आधेयः, यः उपरि अस्ति तस्य आधेयः इति संज्ञा. अस्तु, यद् अधः अस्ति तद् आसनम्. आसनम् इत्युक्ते चेर् अथवा अत्र तु कटः, किमपि यस्मिन् उपविश्यते तादृशम् आसनम्. आसनम् अधिकरणम्, अधिकरणम् इत्युक्ते बेस् यदस्ति तद्. अस्तु, यज्ञदत्तः आधेयः आसनम् अधिकरणं, यज्ञदत्ते अथवा आधेये आधेयता इति भावः वर्तते, यथा सुन्दरे सुन्दरता, अधिकरणे अधिकरणता इति भावः वर्तते. अवगच्छति वा? अस्तु अस्तु, समीचीनं. तर्हि अग्रे गत्वा हा पश्येम, किञ्चित् किञ्चित् अवगच्छति वा अथवा कियत् इति. अस्तु, अग्रे वेणुगोपालमहोदय भवान् एव किञ्चित् प्रतिपादयतु. अनेन उदाहरणेन एव किं ज्ञातुं शक्नुमः द्रव्यस्य विषये अपि च गुणस्य?
द्रव्यं द्रव्यस्य विषयं
यथा यज्ञदत्तः आसने उपविष्टः अस्ति किल, तदर्थं वदामः आसनम् अधिकरणं, यज्ञदत्तः आधेयः, तद्वद् वदतु द्रव्यगुणविषये.
द्रव्यम् आधारः अस्ति, गुणः आधेयः अस्ति.
गुणः आधेयः अस्ति. समीचीनं महोदय. तर्हि द्रव्ये कीदृशभावः अथवा धर्मः विद्यते?
द्रव्यस्य भावः अधिकरणता अथवा आधारता इति भावाः.
सत्यं, बहु समीचीनं. द्रव्यम् अधिकरणम्, अतः तस्मिन् अधिकरणता इति धर्मः, धर्मः इति वक्तुं शक्यते. तादृशधर्मः वर्तते द्रव्ये.
धर्मः
गुणे कीदृशः धर्मः वर्तते?
गुणस्य धर्मः आधेयता इति धर्मः वर्तते.
गुणे आधेयता इति वर्तते, यतोहि गुणः द्रव्यस्य उपरि तिष्ठति इत्यस्मात् कारणात्. अस्तु महोदय, समीचीनमस्ति. अस्तु, सर्वे अधुना हा चतुर्थपृष्ठं पश्यन्तु कृपया. चतुर्थपुटे एवं करोतु, सरला भगिनी, चतुर्थपुटे तत्र सर्वे पश्यन्ति वा चतुर्थपुटम्?
आम्.
हा, चतुर्थपुटे तत्र निष्ठ आसने अधिकरणता वर्तते इत्यस्मात् आरभ्य तत् परिच्छेदं, तं परिच्छेदं पठतु भगिनि.
आसने अधिकरणता वर्तते इत्यं विषयलघुना उपायेन कथं निरूपयामः? तत्र निष्ठ इति वर्ति इति पदं द्वयम् उपकरोति. अतः आसननिष्ठ अधिकरणता, आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातं. तद्वत् एव यज्ञदत्तनिष्ठ आधेयता, यज्ञदत्तवर्ति आधेयता इति च वाक्यद्वयम्. न्यायशास्त्रे निष्ठवर्ति इति पारिभाषिकशब्दः उपयोगं कुर्मः. आसने वयम् अधिकरणता यदि यथा भवती उक्तवती, कथं वयं निरूपयामः तस्य विवरणमस्ति. निष्ठवर्ति इति युक्ते विद्यमानता, निष्ठ वर्तते तस्य अर्थं भवति. आसननिष्ठ अधिकरणता इत्युक्ते आसने अधिकरणता अस्ति. आसने यः भावः अस्ति तस्य भावस्य नाम अधिकरणता अस्ति. तस्य वयं कथं वदामः? आसननिष्ठ अधिकरणता वा आसनवर्तिनी अधिकरणता इति तथैव यज्ञदत्त आधेयः अस्ति, तस्मिन् अस्ति यः भावः अस्ति तस्य नाम भवति आधेयता. तो यज्ञदत्तनिष्ठ आधेयता, यज्ञदत्ते आधेये अस्ति आधेयता. यज्ञदत्त भवति आधार आधेयता प्रति, तथैव यज्ञदत्तवर्ति आधेयता इति वाक्यद्वयं वयं वदामः.
हा, बहु समीचीनं भगिनि. अत्र पुनः निष्ठ अपि च वर्ति अनयोः अर्थः यथा भगिन्या उक्तं विद्यमान इति चिन्तयन्तु. निष्ठ इत्युक्ते युक्तः, आसने यज्ञदत्तः निष्ठः अथवा युक्तः, तदर्थम् आसननिष्ठ यज्ञदत्तः. अपि च यतोहि आसनम् अधिकरणमस्ति, आसने अधिकरणता अस्ति इति कृत्वा आसननिष्ठ अधिकरणता इति प्रयोगः भवति. अपि च यज्ञदत्तनिष्ठ आधेयता इति प्रयोगः भवति. समानरीत्या यज्ञदत्तवर्ति आधेयता अथवा आसनवर्तिनि अधिकरणता अपि भवति इति न्यायशास्त्रस्य विशेषशैली अस्ति. तावदेव, किमपि कस्मिन् अस्ति इति वक्तुम् एवं निष्ठवर्ति इति पदद्वयस्य उपयोगं कुर्वन्ति न्यायिकाः. किञ्चित् बुद्धं वा ज्ञानेश्वरमहोदय? यतोहि भवान् नूतनतया आगतवान् इति कृत्वा किञ्चित् बुद्धं वा अथवा इतोपि
किञ्चित् कष्टमस्ति. अनन्तरं गतकक्षायाः ध्वनिमुद्रकं श्रुत्वा अनन्तरं
अस्तु महोदय, अवश्यं गतवर्गस्य ध्वनिमुद्रणद्वयं शृणोतु कृपया. अस्तु,
आम् धन्यवादः.
अपि च राजी भगिनी इति भवती अपि प्रथमवारं खलु अद्य
अद्य प्रथमवारं परन्तु अहं ध्वनिमुद्रणं श्रुतवती
तर्हि किञ्चित् प्रतिपादयितुं शक्नोति वा अग्रिमपरिच्छेदं पठित्वा
तत्र आधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षा ससम्बन्धिकाः पदार्थाः साकाङ्क्षः इत्यस्य कः अर्थः यं श्रुत्वा एतत् सम्बन्धि अन्यः कः इति जिज्ञासा सर्वदैव भवति यथा रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते तत्र आधेयता अधिकरणता साकाङ्क्षा ससम्बन्धिकः पदार्थाः साकाङ्क्षा इत्युक्ते इच्छा इति इच्छा इति अर्थः यदा रामे पुत्रत्वम् इति भावः भवति तदा एव आधेयता अधिकरणता इति सम्बन्धिकाः पदार्थाः पदार्थाः जिज्ञासा सर्वदैव भवति रामः पुत्रत्वं राम के कस्य केन निरूपम् इति जिज्ञासा भवति इति कोष्टके दत्तमस्ति रामः पुत्रः पुत्रत्वं रामे निरूपितम् इति आकाङ्क्षा साकाङ्क्षा भवति
हा हा समीचीनं भगिनि इत्युक्ते एतावत् पर्यन्तं वयं किञ्चित् चर्चां कृतवन्तः खलु आधेयता अपि च अधिकरणता विषये अधिकरणम् इत्यस्मिन् अधिकरणं यत्किमपि भवतु द्रव्यं भवतु अथवा यज्ञदत्तस्य उदाहरणे आसनं भवतु तस्मिन् अधिकरणता अस्ति यः कोऽपि तस्य उपरि अस्ति यथा गुणः द्रव्ये वर्तते इति कृत्वा तस्मिन् आधेयता अस्ति तर्हि आधेयता इति श्रुत्वा अधिकरणता कुत्र वर्तते इति जिज्ञासा मनसि उदेति किल तदर्थमेव आधेयता अपि च अधिकरणता आना भगिनि I'll be muting you and when you're talking, just unmute yourself, okay? भगिनि
आं भगिनि
किञ्चित् म्यूट् करोमि यदा वदति तदा अन्म्यूट् करोतु कृपया
अस्तु
हा अस्तु यथा राजी भगिनी उक्तवती अधुना आधेयता इति श्रुत्वा तस्य अधिकरणता कुत्र वर्तेत इति प्रश्नः आगच्छेत् इति कृत्वा आधेयता अपि च अधिकरणता ससम्बन्धिकौ पदार्थौ इत्युक्ते एकं ज्ञात्वा अपरं किम् अस्ति विषयस्य पूरणार्थम् अथवा विषयस्य सम्यक्तया अवगमनार्थम् इति जिज्ञासा अथवा आकाङ्क्षा उदेति अस्माकं तादृशपदार्थौ ससम्बन्धिकौ इति उच्यते अत्र उदाहरणमस्ति रामः पुत्रः रामः पुत्रः इति वदामश्चेत् रामः कस्य पुत्रः इति जिज्ञासा उदेति तदर्थं रामे विद्यमानपुत्रत्वस्य निरूपणार्थं पिता कः इति वक्तव्यं भवति अतः रामः अपि साकाङ्क्षः पदार्थः इति उच्यते तद्वद् न्यायशास्त्रे आधेयता अपि च अधिकरणता अनयोः मध्ये तादृशसम्बन्धः अस्ति अतः उच्यते यत् आधेयता अपि च अधिकरणता साकाङ्क्षौ अथवा ससम्बन्धिकौ पदार्थौ इति यतोहि तयोः मध्ये निरूपकनिरूप्यभावः वर्तते इति कृत्वा बुद्धं खलु एतावत्पर्यन्तम् अस्तु इतः अग्रे सरेम श्रीधरन् महोदय पञ्चमपुटे उपरितनभागे एकं चित्रमस्ति किल
चित्रमस्ति पठामि वा
चित्रस्य निरूपणं करोतु महोदय इत्युक्ते यज्ञदत्तः आधेयः इति प्रदर्शितं तत् समीचीनं किन्तु न्यायशैल्या कथं वदति तस्मिन् आधेयता अस्ति इति
यज्ञदत्ते आधेयता अस्ति
इत्युक्ते यज्ञदत्तनिष्ठ आधेयता,
यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रय अधिकरणम्,
आश्रय आसनम् अथवा अधिकरणम्। अस्तु, बहु समीचीनं। हा, बहु समीचीनम्। अहं तु केवलं न्यायभाषया कथम् उच्यते यज्ञदत्तः यज्ञदत्ते आधेयता अस्ति तावदेव पृष्टवती, किन्तु भवान् पूर्णरीत्या उक्तवान्, समीचीनमेव। तर्हि तत्र आसननिष्ठ अधिकरणता अस्ति, यज्ञदत्तनिष्ठ आधेयता अस्ति। द्वौ अपि कीदृशपदार्थौ,
द्वौ यज्ञदत्तः गुणः द्रव्यः,
तत् त्यजतु, अहम् आधेयता अपि च अधिकरणता तयोः विषये पृच्छामि। किं
सासम्बन्धिकाः?
हा, ससम्बन्धिकपदार्थौ तयोः मध्ये निरूपकनिरूप्य भावः वर्तते इति। अस्तु महोदय, इतः अग्रे किञ्चित् गत्वा अग्रिमचित्रं किञ्चित् वदतु, तत्र किम् अस्ति इति।
आधेयता निरूपित अधिकरणता, अधिकरणता निरूपित आधेयता।
हा, समीचीनमस्ति। आधेयता निरूपित अधिकरणता इत्युक्ते आधेयतया निरूपित अधिकरणता। अस्तु, तस्मिन् तस्यां स्थित्यां निरूपकः कः भवति? निरूप्यनिरूपकभावस्थले यथा भवान् उक्तवान् एकः निरूपकः भवेत् अपरः निरूप्यः भवेत् किल?
आधेयता निरूपित अधिकरणता अस्मिन् वाक्ये अधिकरणता निरूपकः आधेयः निरूप्यः।
अत्र किञ्चित् चिन्तनीयं भवति, भवतः वाक्यं किम् आसीत्? आधेयता निरूपित अधिकरणता किल?
आम्।
तथा वदति चेत् तस्य अर्थः कः? आधेयतया। इदानीं पुत्रः रामः, पुत्रः तस्य पिता दशरथः, यदा अहं वदामि रामनिष्ठपुत्रत्वनिरूपित दशरथनिष्ठपितृत्वम् इति वदामि चेत् तत्र पुत्रत्वम् इति पितृत्वं निरूपयति किल?
आम् आम्।
पुत्रत्वं निरूपकः भवति, पितृत्वं निरूप्यः भवति। तद्वद् अधुना चिन्तनं करोतु, आधेयता निरूपित अधिकरणता कथं भवति तत्र?
ओ, आधेयतया निरूपित अधिकरणता, अतः आधेयता निरूप्य भवति, निरूपकः अधिकरणता भवति।
न, अपरस्मिन् दिशि, यः निरूपयति, आधेयतया निरूपित इति वदति चेत् आधेयता निरूपिका भवति।
अवगतम्। आधेयता निरूपकः, अधिकरणता निरूप्यः।
अस्तु, समीचीनम्। इदानीम् अधिकरणता निरूपित आधेयता तस्यां स्थित्याम्?
अधिकरणता अनितया निरूपित आधेयता, अत्र अधिकरणता निरूपकः आधेयता निरूप्यः।
समीचीनं महोदय, तद्वदेव। कः इति अन्ते श्रूयते चेत् यः कोऽपि किमपि कार्यं करोति, यः गायति सः गायकः खलु, यः पृच्छति सः पृच्छकः, यः नयति सः नायकः, तद्वद् यः निरूपयति सः निरूपकः। आधेय अधिकरणता निरूपित आधेयता इति वदामश्चेत् अधिकरणता कार्यं करोति, निरूपणकार्यम् अधिकरणता करोति, तर्हि अधिकरणता इति निरूपिका भवति, स्त्रीलिङ्गे निरूपिका, आधेयता इति निरूप्य भवति। समीचीनम्। अस्तु, इति निरूप्यनिरूपकभावस्य कश्चन परिचयः जातः। अस्माभिः वर्गद्वये एतत् सर्वं कृतमेव, किन्तु केवलं नूतनाः सन्ति इति कृत्वा पुनरावलोकनरीत्या। अग्रे गत्वा पश्यामः यत् आधेयता अपि च अधिकरणता अनयोः मध्ये उभयदिशि भवति निरूपकनिरूप्यभावः। परन्तु अग्रिमचित्रं पश्यन्तु, व्यासः कृष्णकथां निरूपयति इत्यत्र व्यासः अस्ति निरूपकः, कृष्णकथा निरूप्या इति भवति खलु, व्यासे निरूपकता अस्ति, कृष्णकथायां निरूप्यता भवति। अक्षमेतं
भगिनी
पञ्चमे पुटे एकं चित्रमस्ति, व्यासः तस्मिन् निरूपकता, कृष्णकथा इति तस्मिन् निरूप्यता अस्ति। तस्यां स्थित्यां तु केवलं व्यासः निरूपकः, सः एव कृष्णकथां निरूपयति, अपरस्मिन् दिशि न गच्छति, इत्युक्ते कृष्णकथा व्यासं न निरूपयति इति कृत्वा तयोः मध्ये यः निरूप्यनिरूपकभावः अस्ति सः भावः एकस्यां दिशि एव गच्छति, व्यासनिष्ठनिरूपकतानिरूपितनिरूप्यतावती कृष्णकथा इति वक्तुं शक्नुमः। व्यासः कृष्णकथां निरूपयति, व्यास एव निरूपकः। परन्तु आधेयता अधिकरणता तयोः मध्ये निरूपकनिरूप्यभावः उभयता गच्छति, उभयदिशि गच्छति, यथा श्रीधर्महोदय अधुना प्रतिपादितवान्। आधेयता निरूपित अधिकरणता यथा वाक्यं सम्भवति तद्वद् अधिकरणता निरूपित आधेयता इति वाक्यमपि साधुरेव। बुद्धं वा एतावता?
बुद्धम्।
अस्तु, सम्यक्। तर्हि तदनन्तरं षष्ठपुटं पश्यन्तु कृपया सर्वे। तत्र चक्रीमहोदय अस्ति वा? नास्ति इति भाति। विजया भगिनी अस्ति किम्? विजया भगिनी अस्ति वा? अस्तु, तर्हि ज्योति भगिनी।
आम्,
अस्तु भगिनि। तर्हि षष्ठपुटे एकं चित्रम् अस्ति खलु? चित्रे
आसनम् अस्ति, तत्र आसने आसननिष्ठ अधिकरणता अस्ति, अपि च यज्ञदत्तनिष्ठ आधेयता अस्ति, तन्मध्ये निरूप्यभावः अपि अस्ति। तर्हि एकपदेन आसन यज्ञदत्तस्य विषये वक्तुम् इच्छामः चेत् वयं आसननिष्ठ अधिकरणता अस्ति, आसननिष्ठ अधिकरणतायाः निरूपकभावः अस्ति, आसननिष्ठ अधिकरणता निरूपित अधेयता अस्ति, अपि च आसननिष्ठ अधिकरणता निरूपित अधेयतायाः आश्रितः यज्ञदत्तः अस्ति, अतः आसननिष्ठ अधिकरणता निरूपित अधेयताश्रयः यज्ञदत्तः इति एकपदं कर्तुं शक्नुमः।
हा, बहु समीचीनमस्ति भगिनि। तर्हि वाक्यम् एतद् दीर्घं वाक्यं यद् भगिन्या उक्तम्, आसननिष्ठ अधिकरणता निरूपित अधेयताश्रयः यज्ञदत्तः इति वाक्यं यदुक्तं भगिन्या,
आम्,
तद् न्यायशास्त्रे पदार्थानां वर्णनार्थम् उपयुज्यते, अस्तु, निष्ठनिरूपितनिष्ठनिरूपित इति उक्त्वा अस्माभिः अवगम्यते यत् पदार्थः कीदृशः इति। अस्तु भगिनि, एकं प्रयासं कुर्मः अधुना। भवती यज्ञदत्तः कीदृशः इति उक्तवती, अधुना यज्ञदत्तनिष्ठ आधेयता कीदृशः कीदृशी इति वदतु, यज्ञदत्तः कीदृशः।
आम् आम्, आसनतः प्रारम्भं कुर्मः। तर्हि आसननिष्ठ अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः।
हा, पुनः यज्ञदत्तस्य निरूपणम्।
अस्तु, क्षम्यतां। तर्हि यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम्।
हा, तदपि समीचीनं, बहु समीचीनं। तर्हि आसनम् इत्यस्य निरूपणं कृतवती भवती। अहं किं पृच्छामि अधुना, अहं पृच्छामि आधेयता कीदृशी इति पृच्छामि।
ओ,
अपर् रैट् कार्नर् मध्ये यत्किमपि अस्ति, आधेयता अथवा अधिकरणता, तत् कीदृशी इति पृच्छामि अधुना भवती, तस्य विवरणं करोतु।
अधिकरणता निरूपित आधेयता,
हा तावत् पर्याप्तं, परन्तु अधिकरणता अधिकरणता आधेयता बहुषु स्थलेषु वर्तते किल, द्रव्यगुणस्थले वर्तते बहुषु स्थलेषु, तर्हि अधुना इयम् आधेयता यद् प्रथमे चित्रे अस्ति सा कीदृशी इति मम प्रश्नः, तत् कथं वक्तव्यम् इति चेत् अहम् उदाहरणं ददामि, आसननिष्ठ अधिकरणता निरूपित यज्ञदत्तनिष्ठ आधेयता, अस्तु यथा मया उक्तम् उपरि गमनार्थं निष्ठ इति पदस्य उपयोगः, अधोगमनार्थं तद्वदेव अधोगमनार्थं आश्रयः, तत्र पश्यन्ति चेत् उप ऊर्ध्वगामिनी शरे अपर् एरो सर्वदा निष्ठ इति स्थापयन्ति, अधोगामिनी शरे सर्वदा वान् अथवा आश्रयः इति स्थापयन्ति, किमर्थं चेत् वान् इति वदति चेत् आधेयता अस्मिन् अस्ति अथवा अयं यज्ञदत्तः आधेयतायाः आश्रयः इति सूचयति, तद्वदेव निष्ठ इति अपि किञ्चित् तद्वदेव तथैव सूचयति, परन्तु आसननिष्ठ अधिकरणता निरूपित आधेयतावान् यज्ञदत्तः इति, यज्ञदत्तः कीदृशः इति निरूपणं जातं, पुनः निष्ठ उपयुज्य आधेयता इयम् आधेयता कीदृशी इति वक्तव्यं, यतोहि आधेयता पुनः गुणे अपि भवति किल अग्रिमचित्रे पश्यति चेत् बहुषु स्थलेषु वर्तते, तर्हि अतीव सूक्ष्मरीत्या परिशीलनं करणीयम् इति चेत् वेरि स्पेसिफिकलि वक्तव्यं चेत् आसन
निरूपितयज्ञदत्तनिष्ठ आधेयता,
हा समीचीनं भगिनि, अस्तु अग्रे अधिकरणता कीदृशी इति वदतु,
यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ अधिकरणता,
हा इति अस्ति, अधुना
हा
एतत्तु जातं यज्ञदत्तः आसनमिति लौकिक उदाहरणं, लौकिक उदाहरणं, न्यायशास्त्रे तस्य मूल्यं किमपि नास्ति, केवलं निष्ठ निरूपकनिरूप्यभावः अस् कुत्र अस्ति इत्यादिकम् इत्यादीनां प्रदर्शनार्थम् उपयुक्तं तद् उदाहरणम्, अस्माकं मूलविषयः तु अस्ति द्रव्यगुणनिरूपणम् अथवा कर्म इति निरूपणं, सामान्यम् इत्यस्य निरूपणं, तर्हि द्रव्यम् इति स्वीकृत्य अधुना गुणः द्रव्यम् अग्रिमचित्रे द्रव्यम् इत्यस्मात् आरभ्य वदतु गुणः कीदृशः,
अस्तु तर्हि द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः,
हा समीचीनं भगिनि, इदानीम् आधेयता कीदृशी,
द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता,
बहु सम्यक् अस्ति, अस्तु अधुना विपरीतदिशि वदतु विपरीतरीत्या द्रव्यं कीदृशं,
गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रयं द्रव्यम्,
अधिकरणताश्रयः द्रव्यम्, यतोहि आश्रयः इति नियतलिङ्गकशब्दः विशेष्यनिघ्नः नास्ति, एतेषु वाक्येषु आसननिष्ठ न क्षम्यतां गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रयः द्रव्यम् अत्र विशेषणविशेष्यभावः न उद्देश्यविधेयभावः इति कश्चन
भावः, अस्तु अस्तु,
द्रव्यम् इति उद्दिश्य द्रव्यम् इति उद्दिश्य तस्मिन् कीदृशी अधिकरणता वर्तते इति अस्माकं निरूपणं, तर्हि आश्रयः इति नियतलिङ्गकशब्दः तस्मात् अग्रे द्रव्यम् इति नपुंसकलिङ्गपदमस्ति तद्भवतु नाम, अथवा गुणः इति पुल्लिङ्गशब्दः अस्ति तद्भवतु नाम, किन्तु तस्य लिङ्गभेदः
आश्रयः
इति अस्तु समीचीनं, गुणनिष्ठ अधेयता निरूपित अधिकरणतावत् द्रव्यं, हा तद् मतु प्रत्ययः तु नपुंसकलिङ्गे अथवा भवति एव वत् आश्रयद्रव्यम्, अस्तु अस्मिन् सन्दर्भे अधिकरणता कीदृशी भगिनि,
तत्र गुणनिष्ठ अधेयता निरूपित द्रव्यनिष्ठ अधिकरणता,
हा द्रव्यनिष्ठ अधिकरणता बहु सम्यक् अस्ति इति अस्माकं गुणस्य च द्रव्यस्य निरूपणं जातं न्यायशास्त्रस्य भाषाशैल्या, अस्तु अधुना अग्रिमपुटे पश्यन्तु, सप्तमे पुटे उपरितनभागे एकं चित्रमस्ति. द्रव्यम् इति अस्ति. यथा वयं जानीमः, द्रव्यं सर्वेषाम् आश्रयः भवति खलु. द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यम् अस्ति, द्रव्ये विशेषः अस्ति, द्रव्ये समवायः अस्ति, द्रव्ये अभावः अपि अस्ति. तर्हि अस्माकं कार्यं गृहपाठत्वेन गतवर्गे किम् उक्तम् आसीत् इति चेत् एतेषां निरूपणं भवतु, निष्ठ निरूपित वान् आश्रयः इत्यादीनां प्रयोगेण भवतु इति गृहपाठः आसीत्. तद् तद् किञ्चित् अधुना परिशीलयिष्यामः. तर्हि श्रीधरन् महोदय वक्तुमिच्छति वा? यद् ज्योति भगिनी उक्तवती, द्रव्यम् अथवा गुणः अनयोः मध्ये निरूपकनिरूप्यभावं कल्पयित्वा उक्तवती. भवान् अधुना द्रव्यं तस्मिन् कर्म अस्ति अस्तु इति उदाहरणं स्वीकृत्य वदतु.
द्रव्यनिष्ठ अधिकरणता निरूपित अधेयता आश्रयः कर्म.
बहु समीचीनं महोदय. आधेयताश्रयः कर्म इति आगतम्. अस्तु, अस्मिन् सन्दर्भे आधेयता कीदृशी?
आधेयता द्रव्यनिष्ठ अधिकरणता निरूपित कर्मनिष्ठ आधेयता.
हा, बहु सम्यक्. अधुना विपरीतं गच्छतु, विपरीतदिशि.
विपरीतदिशे आधेयता निरूपित अधिकरणता आश्रयः द्रव्यम्.
बहु समीचीनमस्ति. अस्मिन् सन्दर्भे तर्हि अधिकरणता कीदृशी?
अधिकरणता
द्रव्यनिष्ठ, क्षम्यतां, कर्मनिष्ठ
आदेयता निरूपित अधिकरणता आश्रय द्रव्यम् उक्तवान्.
हा, इति उक्तवान्. अत्र अधिकरणता कीदृशी इति मम प्रश्नः. कर्मनिष्ठ आदेयता निरूपित
अधिकरणता आश्रय द्रव्यम्
उक्तवान् भवान्. केवलं यथा पूर्वम् आधेयता कीदृशी इति मया प्रश्नः पृष्टः, भवान् उक्तवान् किम्? सर्वम् उक्त्वा अन्ते गुणनिष्ठ आदेयता, उपरि गमनार्थं निष्ठ इति योजितवान् किल?
आम्.
तद्वदेव अधुनापि करोतु इति. गुणनिष्ठ, क्षम्यतां, कर्मनिष्ठ आदेयता निरूपित द्रव्यनिष्ठ
अधिकरणता. आम्. द्रव्यनिष्ठ अधिकरणता,
सत्यं, तावदेव, अन्यत् किमपि नास्ति. अस्तु,
आम्.
समीचीनं महोदय. अधुना राजी भगिनी प्रयत्नं करोति वा द्रव्ये सामान्यम् अस्ति इति? राजी भगिनी अन्म्यूट् करोतु.
अस्तु भगिनि, क्षम्यता. द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः सामान्यम्. सामान्यनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः द्रव्यम्.
बहु समीचीनं भगिनि. अधुना अभ्यासार्थम् आधेयता कीदृशी तर्हि?
सामान्यनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता.
हा, इति अधिकरणतायाः निरूपणं. बहु सम्यक् आसीत्. अधुना आधेयता कीदृशी तर्हि? आधेयतायाः निरूपणं करोतु.
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता. आधेयतानिष्ठ
न भवती भवती उक्तवती एव, द्रव्यनिष्ठ अधिकरणता निरूपित सामान्यनिष्ठ आधेयता.
सामान्यनिष्ठ आधेयता. अस्तु भगिनि, द्रव्यनिष्ठ अधिकरणता निरूपित सामान्यनिष्ठ आधेयता.
समीचीनं. तर्हि प्रश्नः श्रोतव्यः, आधेयता कीदृशी इति पृच्छामि चेत् आधेयतायाः निरूपणं भवतु. अधिकरणता कीदृशी इति चेत् अधिकरणतायाः निरूपणं भवतु. सामान्यतया न्यायशास्त्रे निरूपित इति शब्दः अस्ति खलु, तस्य परितः इत्युक्ते तस्य दक्षिणतः च वामतः सामान्यतया ससम्बन्धिकौ पदार्थौ भवेताम् निरूपित. तर्हि किं कस्य निरूपणं करोति? ससम्बन्धिकशब्दानां निरूपणं भवति अग्रे गत्वा. अधिकरणता कीदृशी अस्ति, आदेयता कीदृशी, कीदृशः धर्मः वर्तते कुत्र, तदर्थमेव मनसि भवेत्. उपरि गमनार्थं निष्ठा इति भवति. यदि आश्रयस्य वर्णनम् अपेक्षितं तर्हि अधोगमनार्थम् आश्रयः, वान् अथवा वति अथवा वत् इति योजनीयं भवति. बुद्धम्? अस्तु, इतः अग्रे वेणुगोपाल् महोदय अस्ति वा?
अस्मि.
अत्र द्रव्यम् अपि च विशेषः
विशेषः द्रव्यं द्रव्यं निष्ठा, अधिकरणता निरूपित, विशेष अधेयता आश्रयः विशेषः.
समीचीनं महोदय.
विशेषः निष्ठा अधेयता निरूपित अधिकरणता आश्रयः द्रव्यम्.
बहु सम्यक् अस्ति. अस्तु, अस्मिन् सन्दर्भे आधेयता कीदृशी, आधेयतायाः निरूपणं करोतु.
आधेयता विषयः निष्ठा आधेयता निरूपित साधु वा?
हा, तत् समीचीनमेव, बहु सम्यक् आसीत्. तत्तु सम्यक् एव, सामान्य सरलरीत्या तत् समीचीनं. किन्तु अहम् एकं वाक्यं वदामि, अस्तु शृणोतु. आधेयता कीदृशी, आधेयता बहुत्र वर्तते खलु, वयं दृष्टवन्तः. गुणकर्मस्थले, क्षम्यतां, द्रव्यगुणस्थले वर्तते आधेयता, द्रव्यकर्मस्थले वर्तते आधेयता, द्रव्यसामान्यस्थले अपि वर्तते.
अस्तु,
तर्हि अस्माकं विशिष्ट उदाहरणम् अधुना अस्ति द्रव्यं, तस्मिन् विशेषः. सा आधेयता कीदृशी इति स्पेसिफिकलि सूक्ष्मरीत्या वक्तव्यं चेत् द्रव्यनिष्ठ अधिकरणतानिरूपित विशेषनिष्ठ आधेयता. भवान् यं क्रमम् अनुसरति, द्रव्यनिष्ठ अधिकरणतानिरूपित आधेयताश्रयः विशेषः इति अन्ते विशेषः इति श्रूयते खलु, तत्तु विशेषस्य निरूपणम्. तद्विशेषस्य निरूपणं साधु आसीत्, परन्तु अहं पृच्छामि आधेयता कीदृशी, तदा किं वदति?
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आश्रय विषयः
विशेषः. द्रव्यनिष्ठ, एकनिमिष, द्रव्यनिष्ठ अधिकरणता निरूपित तावत् समीचीनम्, अस्तु. ततः अग्रे केवलं विशेषनिष्ठ आधेयता इति वदतु.
अस्तु अस्तु.
द्रव्यनिष्ठ अधिकरणता निरूपित विशेषनिष्ठ आधेयता इति आगच्छ.
क्षम्यताम्, can you repeat slowly? I want to write down these two sentences, this side and another side. First, visheshanishta adhyata nirupita adhikarata dravyam. Correct? No,
visheshanishta adhyata nirupita adhikaranata ashrayaha dravyam. Apicha? Anna Bhagini. On page 6, on page 6, I mean, this was done in the last two classes. If you go back and listen to the audio files, you'll get everything. And on page 6, the first paragraph, below the pictures, in between the pictures, explain further. So you just have to replace dravyam, I'm sorry, gunaha with karma, gunaha with samanyam, etc. and make your sentences. So it is all there. Astu?
Astu, astu.
अस्तु, वेणुगोपाल् महोदय, द्रव्यनिष्ठ अधिकरणता निरूपित गुणनिष्ठ आधेयता इति जातम्, अथवा विशेषनिष्ठ आधेयता. अधुना अधिकरणता कीदृशी?
विशेषः निष्ठा अधेयता निरूपित विशेषः आश्रय अधिकरणता।
पश्यतु महोदय, गुणः द्रव्यमिति पश्यति वा चित्रे?
अस्तु,
फालो दट् एक्साम्पल्, ऐ विल् एक्स्प्लेन् दिस् टु यु नौ। गुणनिष्ठ अधेयता निरूपित अधिकरणतावत् अथवा अधिकरणताश्रयः द्रव्यं, तावत् अवगच्छति? नौ मै क्वश्चन् इस् अधिकरणता कीदृशी इति। द्रव्यनिष्ठा इति सत्यं, किन्तु मम प्रश्नः अधिकरणता कीदृशी इति वक्तव्यं चेत् फालो द फ्लो आफ् मै वर्ड्स्। गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता इति पुनः उपरि गन्तव्यम्।
अस्तु,
तावदेव। गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता। अधिकरणता इस् द लास्ट् वर्ड्, अधिकरण इस् द अन्तिमपदम् अस्ति चेत् तर्हि अधिकरणतायाः निरूपणं कृतम् अस्माभिः इति। यदा मया द्रव्यस्य निरूपणं करणीयम् अस्ति तदा गुणनिष्ठ अधेयता निरूपित अधिकरणताश्रयः द्रव्यम् अथवा अधिकरणतावत् द्रव्यम् इति अहं वक्तुं शक्नोमि।
अस्तु,
बुद्धं वा महोदय?
बुद्धं।
अस्तु, सम्यक्। तर्हि सरला भगिनी अस्ति किम्? सरला भगिनी, तर्हि हा समीचीनं भगिनी। तर्हि अधुना द्रव्यम् अपि च समवायः अनयोः प्रतिपादनं भवतु।
अस्तु, द्रव्यनिष्ठाधिकरणता निरूपित समवायनिष्ठ आधेयता इति अस्ति आधेयतायाः निरूपणं। द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् समवायः इति अस्ति समवायस्य विवरणं। पुनः अस्ति द्रव्यं कीदृष्टि समवाये उपयुज्य तत् भवति समवायनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम्।
समीचीनं भगिनि, अधिकरणता कीदृशी अधुना?
अधुना अधिकरणता भवति समवायनिष्ठ आधेयता निरूपितद्रव्यनिष्ठ अधिकरणता।
समीचीनं, सम्यक्, इति एव वार्ता अस्ति। अस्तु, आना भगिनि, भवती प्रयत्नं कर्तुम् इच्छति वा?
न भगिनि, अहं न अवगच्छामि किञ्चित्।
तर्हि पुनः एकवारं पठतु, अवगम्यते प्रायः, अथवा ध्वनिमुद्रणं शृणोतु। अस्तु, तर्हि अन्य कोऽपि? चक्रिमहोदय अस्ति वा? अस्तु, तर्हि श्रीधरं महोदय एव समापयतु द्रव्यम्।
अभावः विषये वदामि वा? द्रव्यनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः अभावः, विपरीतदिशे अभावनिष्ठा आदेयता निरूपित अधिकरणता आश्रयः द्रव्यम्।
हा, समीचीनमस्ति महोदय। अधुना भवतः उदाहरणे अभावः अपि च द्रव्यं, तस्मिन् उदाहरणे आधेयता कीदृशी वदतु?
आधेयता द्रव्यनिष्ठ अधिकरणता निरूपित अभावनिष्ठ आधेयता।
बहु समीचीनं, पुनः अधिकरणता कीदृशी?
अधिकरणता अभावनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता।
हा, सम्यक् अस्ति। इति आधाराधेयभावव्यवस्थापनम् इति सञ्जातम्। एषः सिद्धान्तः बहु मुख्यः सिद्धान्तः। यथा मया उक्तम्, उद्देशग्रन्थे केवलं नाम्ना कथनं भवति, अस्तु, सप्तपदार्थाः के इति कथनं, द्रव्यमिति अन्यतमः पदार्थः, तर्हि द्रव्याणां कथनम् इति भवति। परन्तु अग्रे गत्वा उद्देशभागं समाप्य लक्षणभागः भवति अथवा लक्षणग्रन्थः भवति, तस्मिन् एतादृशानि विवरणानि दीयन्ते। तर्हि निरूप्यनिरूपकभावः आधाराधेयभावः सम्यक्तया मनसि भवेत्। यत्र यत्र निरूप्यनिरूपकभावः अस्ति तत्र तत्र अपरः कश्चन भावः भवत्येव, आधाराधेयभावः इति। तदर्थमेव अत्र उक्तं निरूप्यनिरूपकसम्बन्धः ज्ञातः चेत् आधाराधेयभावः ज्ञायते इति। आधाराधेयभावः इति एकः सम्बन्धः, अग्रे गत्वा पश्यामः कार्यकारणभावः इति आगच्छति। तत्र कार्यता कारणता अनयोः मध्ये अपि सम्बन्धः सम्बन्धं कल्पयित्वा निरूपणं करणीयं, तत्रापि निरूप्यनिरूपकभावः अस्ति, तथा बहुत्र पश्येम। तर्हि एतस्य अभ्यासः एतस्य अभ्यासं सम्यक्तया कुर्वन्तु गृहे अपि इतोपि एकवारम्। अस्तु, तर्हि एतावत्पर्यन्तं वयं किं किम् अधीतवन्तः इति चेत्, न्यायशास्त्रस्य किञ्चित् परिचयं प्राप्य तत्र सप्तपदार्थाः के इति दृष्ट्वा, द्रव्यगुणकर्म सामान्यं विशेषः समवायः अभावः इत्येषां नामानि दृष्ट्वा, ततः अग्रे गत्वा आधाराधेयभावं निरूप्यनिरूपकभावं च अधीतवन्तः। अधुना सप्तपदार्थेषु द्रव्यम् इति प्रथमः पदार्थः, तर्हि अस्मिन् पृष्ठे सप्तमे पृष्ठे द्रव्यस्य नाम्ना सङ्कीर्तनम् अथवा द्रव्यस्य उद्देशः क्रियते, तत् कथं कुर्वन्ति इति पश्येम। सरला भगिनी पठति वा तानि नवद्रव्याणि इति?
आं भगिनि, तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि, तथा च सङ्ग्रह तत्र द्रव्याणि पृथिव्यप्तेजो वायवाकाशकाल दिगात्मन् आत्ममनासि नवैव इति। अहं पुनः सन्धिविभज्य कर्तुं वदामि, तत्र द्रव्याणि पृथ्वी अप् तेजः वायु आकाश काल दिग् आत्म मनासि नव एव इति। नवद्रव्याणि यथा वयं प्रथमे पुस्ते दृष्टवन्तः, अत्र दत्तं सन्ति, यथा भवती उक्तवती नामानि सङ्कीर्तनम्, अत्र सर्वे सङ्ग्रह दत्तमस्ति, इतरेतरद्वन्द्वसमासः अस्ति, पृथ्वी आपयति जलं, तेजः वायु।
एकं वक्तव्यमस्ति, सम्यक्तया उक्तवती भवती, किन्तु पृथ्वी अपि च अप् इति अस्ति, अप् इत्युक्ते जलम्, आपः इति शृण्वन्ति किल, आपः इत्युक्ते जलं, वस्तुतः तद् नित्यबहुवचनं, परन्तु तस्य प्रातिपदिकमस्ति अप् इति, अत्र तु समस्तपदमिति कृत्वा पृथिवी अप् इति उक्तम्। अस्तु, पृथिवी अप्, अनन्तरं
तेजः वायु आकाश, तत्र पृथ्वी अप् द्वयो मध्ये यणसन्धि अस्ति, तेज वायु वायु आकाशमध्ये अपि यणसन्धि अस्ति, आकाश काल दिग् आत्मनि
तत्रापि आत्मा इति अस्ति खलु, किं प्रथमविभक्त्याम् आत्मा इति अस्ति, किन्तु आत्मन् इति प्रातिपदिकं समासे जाते आत्मा इति अपि एव तिष्ठति।
मनासि बहुवचने अस्ति, कारणे द्वन्द्वसमासः अस्ति।
हा, सम्यक्, नवद्रव्याणि अत्र निर्दिष्टानि, अपि च एतदस्ति समस्तपदम्, इतरेतरद्वन्द्वः इति। अस्तु, अत्र कस्यचित् कोऽपि प्रश्नः वा? नो चेत् अग्रे सरेम। राजी भगिनी अग्रे पठति वा?
मनसि मनांसि
एकनिमिषः,
समानमेव वा? मनस् मनांसि समानमेव वा?
मनः इति तस्य रूपाणि वदतु महोदय, एकवचने, द्विवचने, बहुवचने? मनः मनसि मनांसि इति
मनांसि
मनांसि इति बहुवचने, सकारान्तपदं हा सत्यं भगिनि, सकारान्तप्रातिपदिकं। परन्तु अत्र इतरेतरद्वन्द्वः, यथा सरला भगिनी उक्तवती, इतरेतरद्वन्द्वे बहुवचनान्तं पदं भवति सर्वदा, अथवा द्विवचनमपि अपि भवति, यत्किमपि वचनं भवतु तदत्र प्रदर्श्यते। अत्र नवद्रव्याणि सन्ति खलु इति कृत्वा बहुवचनान्तपदमस्ति, पृथ्वी, पृथ्वी अप्, तेजो, वायु, आकाश, काल, दिगात्मा, मनांसि इति अन्तिमपदस्य बहुवचनरूपं योजयन्ति तत्र। बुद्धम्? अस्तु, समीचीनं। राजी भगिनी अग्रे।
ततः गुणान् विभजति, रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथुत्वसंयोगविभागपरत्वापरत्वगुरुत्व द्रवत्वस्रेह द्रवत्वस्रेह शब्दबुद्धिसुखदुःखे दुःखे च द्वेषप्रयत्तधर्माधर्मसंस्काराः चतुर्विंशतिर्गुणाः इति। यत् द्रव्याण्याः गुणाः चतुर्विंशतिगुणाः भवन्ति, तत् रूपं रस गन्ध स्पर्श सङ्ख्या परिमाण कृतत्वसंयोगविभाग परत्व अपरत्व गुरुत्व द्रवत्व शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म धर्म अधर्म संस्काराः।
भगिनी?
आम्
हरि ओम् भगिनी। राजी भगिनी श्रूयते वा?
आम् आम् अहं वदामि किल, अहं वदन्ती अस्मि।
ओ अस्तु अस्तु भगिनि, मया न श्रुतं, कृपया।
ओके, रूप रस गन्ध स्पर्श सङ्ख्यापरिमाण पृथक्त्व संयोग विभाग
ध्वनिः श्रूयते वा सरला भगिनि?
सम्यक् शृणोमि।
राजी भगिन्याः ध्वनिः श्रूयते वा?
आम्
शृणोमि।
तर्हि मम पक्षे किमपि अस्ति। अस्तु भगिनि अग्रे गच्छतु राजी भगिनि।
परत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः इति चतुर्विंशतिगुणाः भवन्ति।
हा समीचीनं। तर्हि भगिनी आहत्य कति द्रव्याणि सन्ति?
आहत्य गुणाः द्रव्याणि
नवद्रव्याणि
नवद्रव्याणि चतुर्विंशतिगुणाः।
अस्तु, अपि च तयोः सम्बन्धः कीदृशः, कः कस्मिन् वर्तते?
पृथिव्यां रूपः गन्धः
इत्युक्ते स्थूलरीत्या द्रव्ये गुणः वर्तते वा अथवा गुणे द्रव्यं वर्तते वा?
द्रव्यगुणः वर्तते।
हा समीचीनं, द्रव्ये गुणः वर्तते। सम्यक्। तर्हि यथा भवती अपि पठितवती, सरला भगिनी अपि पठितवती, अस्मिन् भागे न्यायशास्त्रग्रन्थस्य प्रथमः भागः उद्देशग्रन्थः इति, तस्मिन् भागे केवलं नाम्ना सङ्कीर्तनं भवति पदार्थानां, यथा अत्र कृतं। तत्र नवद्रव्याणि निर्दिष्टानि, तदनन्तरं चतुर्विंशतिगुणाः निर्दिष्टाः किल। केवलं नाम्ना सङ्कीर्तनं, द्रव्यस्य लक्षणं किम् इति न उक्तम्। अस्तु, जगति यावन्ति वस्तूनि सन्ति तानि सर्वाणि सप्तपदार्थेषु विभजितानि, अपि च तेषु द्रव्यम् इति अन्यतमः पदार्थः, तत्र नवद्रव्याणि सन्ति इति नवद्रव्याणि, अपि च यस्मिन् कस्मिन् अपि गुणः वर्तते तद्द्रव्यम् इति वयं जानीमः। तर्हि गुणः कति सन्ति इति प्रश्नः आगच्छेत् तर्हि चतुर्विंशतिगुणाः नाम्ना सङ्कीर्तनं कृतम् तावदेव भवति उद्देशविभागे। इतः अग्रे गत्वा इतोपि लक्षणस्य तस्य लक्षणस्य अथवा अन्यद्धर्मः अन्यः धर्मः कोऽपि अस्ति वा इत्यादीनां परिशीलनम् अग्रे भवति.
उदं
अस्तु, तर्हि अग्रे गच्छेम. विजया भगिनी अस्ति वा? विजया हेतिराजन् भगिनी नास्ति. अग्रे ज्योति भगिनी अग्रे पठति.
आम्, केचन दार्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति, अतः कर्मणि अस्ति विवादः. न तथा गुणेषु, गुणानाम् इयत्ता विषये अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः.
तावद् भगिनि.
आम्, तर्हि कर्म पदार्थः अस्ति वा नास्ति इति विवादः अस्ति.
एवं कुर्मः, वाक्यशः पठित्वा वदतु.
अस्तु, तर्हि केचन दार्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति, कर्मस्य अस्तित्वं न अङ्गीकुर्वन्ति केचन दार्शनिकाः. अतः कर्मणि अस्ति विवादः, तत्र वादः अस्ति. गुणेषु न तथा, गुणानाम् इयत्ता विषये विवादसत्त्वेपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः. तर्हि गुणः स्वतन्त्रपदार्थः अस्ति वा नास्ति इति विवादः नास्ति. अतः गुणकर्मणो मध्ये गुणः एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः. तत् अहं न अवगतवती.
अस्तु, सप्तपदार्थाः के भगिनि?
गुण, क्षम्यतां, द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः, सप्तपदार्थाः.
तस्मिन् क्रमे प्रथमं किं निर्दिष्टं?
द्रव्यमस्ति प्रथमं.
तदनन्तरं
गुणः.
हा, परन्तु किमर्थं कर्म इति न निर्दिष्टं गुणस्य गुणात् प्राक्? यतोहि यथा भवती अधुना उक्तवती, केचन दार्शनिकाः अथवा केचन नैयायिकाः कर्म इति अन्यतमः पदार्थः भवतु इत्येव न अङ्गीकुर्वन्ति. अस्तु, सप्तपदार्थाः कथं निर्मीयन्ते इति चेत्, अस्तु, यत्किमपि द्रव्यमस्ति सः गुणः न भवितुमर्हति, किल? द्रव्यस्य विशेषलक्षणमस्ति, गुणस्य विशेषलक्षणमस्ति. अस्तु, तद् यः कोऽपि गुणः अस्ति तद् द्रव्यम् इत्यस्यां श्रेण्यां न गन्तुमर्हति. अतः इति नूतनपदार्थः भवतु इति कृत्वा अपरः पदार्थः. तद्वत् आवश्यकताम् अवलम्ब्य पदार्थाः निर्मिताः, कर्म, सामान्य इत्यादिकं. परन्तु केचन नैयायिकाः कर्म इति पदार्थमेव न अङ्गीकुर्वन्ति, कर्म इति नूतनः पदार्थः एव मास्तु इति ते वदन्ति. किमर्थं तथा वदन्ति अग्रे पश्येम, अग्रे गत्वा. तर्हि अत्र दार्शनिकाः इत्युक्ते नव्यनैयायिकाः, अपि च प्राचीननैयायिकाः, वैशेषिकाः इति एते सर्वे आगच्छन्ति. अस्तु, तेषां मतभेदः भवति किञ्चित् किञ्चित्, परन्तु अत्र उच्यते यत् केचन कर्मणः अस्तित्वमेव न स्वीकुर्वन्ति. कर्म अस्ति न वा इत्यस्य विषये वैमत्यमस्ति अथवा विवादः अस्ति दार्शनिकानां.
कर्म इति वस्तु एव नास्ति वा? कर्म अस्ति एव.
अस्ति महोदय, अत्र प्रदर्शितं, किन्तु केचन दार्शनिकाः, यथा मया उक्तं, नैयायिकेषु एव नव्यनैयायिकाः, प्राचीननैयायिकाः, अपि च न्यायशास्त्रम् इति वैशेषिकशास्त्रमपि अवलम्ब्य प्रतिपादितम्. अस्तु, दार्शनिकाः इत्युक्ते ते एते सर्वे, नूतननैयायिका, प्राचीननैयायिकाः, एते तेषु केचन कर्म इति पदार्थं न अङ्गीकुर्वन्ति, कर्म इति अपरः पदार्थः एव मास्तु इति वदन्ति.
कस्यां श्रेण्याम् अस्ति?
एकनिमिषः, एकनिमिषः, तत्र विवादः अस्ति. केचन वदन्ति कर्म भवतु, अस्तु, केचन वदन्ति कर्म मास्तु इति विवादः अस्ति. नैयायिकानां मध्ये एव तादृशविवादः अस्ति कर्मणः विषये.
आम्
इति कृत्वा अत्र उच्यते यत् गुणस्य निरूपणं प्रथमं कृतं, यतोहि गुणः इत्यस्य विषये न कोऽपि विवादः, सर्वे
तत् निर्विवादः अस्ति, अतः तत् प्रथमं तत् निर्दिष्टम्, अनन्तरं कर्म निर्दिष्टम्.
द्रव्यस्य विषये तादृशः विवादः नास्ति, गुणस्य विषये तादृशविवादः नास्ति, कर्मणः विषये तादृशविवादः अस्ति. अवगच्छति वा श्रीधरन् महोदय?
किमर्थं कर्मविषये एव तादृशतर्कं भवति?
यतोहि यथा मया उक्तं, यदि कुत्र केटगरीस् निर्मीयन्ते खलु, पदार्थाः, सप्तपदार्थाः, यदि एकः पदार्थः अपरत्र स्थापयितुं शक्यते चेत्, इदानीं चिन्तयतु, मयि कर्म अस्ति, तद् कर्म प्रायः गुणः इत्यस्मिन् केटगरियां स्थापयितुं शक्यते, श्रेण्यां स्थापयितुं शक्यते चेत् अस्तु, तद् गुणः एव भवतु. पुनः कर्म इति नूतनपदार्थः किमर्थं? तादृशवादविवादाः भवन्ति. अस्तु, अतीव अतीव लाघवार्थं यावत् आवश्यकं तावदेव, यावन्ति श्रेण्यः आवश्यकाः तावन्ति एव स्वीक्रियन्ते इति, तावत्यः एव स्वीक्रियन्ते इति. श्रीधरन् महोदय, परन्तु अत्र उक्तं गुणानां तृतीयवाक्यं पश्यन्तु, गुणानाम् इयत्ता विषये विवादे सत्त्वे अपि इति. ज्योति भगिनी तत्र किम् अवगच्छति?
तर्हि तस्य क्रमस्य विषये विवादः सति, विवादः अस्ति, तर्हि गुणः अतिरिक्तपदार्थः वर्तते न वा इति विवादः नास्ति.
हा, गुणानाम् इयत्ता, इयत्ता इत्युक्ते कियत् तावत् इति शब्दाः श्रुताः खलु, तावत् बलम् अथवा किं तावती शक्तिः, तावान् समयः.
अस्तु, तर्हि गणनाविषये.
हा, गणनाविषये, कियत् कियत् इत्युक्ते क्वाण्टिटि अथवा गुणा, गुणानां संख्या का इत्युक्ते कियन्तः गुणाः सन्ति, तस्य विषये विवादः अस्ति नैयायिकानां मध्ये. अस्तु, चतुर्विंशति गुणाः सन्ति.
ओ अस्तु, ओ अस्तु अस्तु.
ततः अधिकाः गुणाः सन्ति वा अथवा तस्मात् न्यूनाः गुणाः सन्ति वा इति विषये
तेषां गणनाविषये विवादः अस्ति, परन्तु तस्य अस्तित्वस्य विषये विवादः नास्ति.
सत्यं, समीचीनं भगिनि. तदर्थमेव यस्य कस्यापि विषये निश्चितरीत्या तदस्ति इति वक्तुं शक्यते, तेषां तेषां कुर्मः इति कृत्वा द्रव्यं गुणः इति. अग्रे गत्वा इतोपि परिशीलनं कुर्मः अस्य विषये, परन्तु अस्य वाक्यस्य अर्थः एवमेव, यथा भगिनी उक्तवती, गुणानां सङ्ख्यायाः विषये अस्ति विवादः, न तु तस्य सत्त्वस्य विषये इति आगच्छति.
अवगतम्,
अवगतं, सम्यक्. अग्रे वेणुगोपाल् महोदय अग्रे पठति वा? ते च
अस्तु अस्तु भगिनि. केचन दश ते च रूप रूप रस गन्ध स्पर्शेत्वादि संज्ञाः पञ्च. अस्तु,
ते च रूपरसगन्ध स्पर्शेत्यादि स्पर्श इत्यादि स्पर्शेत्यादि संग्रहपङ्क्त्या
निरूपिताः.
किम् अवगच्छति सङ्ग्रहपङ्क्ति इत्युक्ते?
सङ्ग्रहपङ्क्ति इत्युक्ते
तर्कसङ्ग्रहस्य पङ्क्ति अस्तु
तर्कसङ्ग्रहस्य
तर्कसङ्ग्रहः इति मूलग्रन्थः, तस्य व्याख्या विद्याधरी इति अस्माकं ग्रन्थः अधुना पठ्यमानः किल. तर्हि नूतनानां विषये, नूतनानां कृते वदामि, अत्र यत्किमपि बोल्ड् इटालिक्स् मध्ये दृश्यते, यथा द्रव्याणां निरूपणम् अथवा गुणानां निरूपणं, न निरूपणमिति न, नाम्ना सङ्कीर्तनम्, उद्देशः, निर्देशः बोल्ड् इटालिक्स् मध्ये अस्ति खलु. तस्य अर्थः यत् साक्षात् तर्कसङ्ग्रहग्रन्थात् उद्धृतं वाक्यम् इति. हा, तर्कसङ्ग्रहे साक्षात् एवमेव अस्ति, तत्र नवद्रव्याणि, पृथिवी, अपि च रूपरसगन्ध इत्यादि चतुर्विंशतिगुणाः इति तत्र तस्मात् एव उद्धृतं वाक्यम् इत्येव अत्र उक्तं. रूपरसगन्धस्पर्शेत्यादि तर्कसङ्ग्रहपङ्क्त्या निरूपिताः इति. अस्तु, सम्यक्. अधुना द्रव्यं जातम् अपि च गुणः इत्यस्य निर्देशः जातः, अग्रे किं निर्दिश्यते इति महोदय. ततः
ततः कर्मक्रिया निर्दिष्टा उत्क्षेप उत्क्षेपनादिर्दिग्गन्धेन उत्पेक्षणा दिग्गन्धेन तथा कर्मक्रिया ततः कर्मक्रिया निर्दिष्टा उत्पेक्षणादिग्रन्थेन उत्पेक्षणाग्रन्थेन पदस्य अर्थः अर्थं न ज्ञातुम्.
अत्र उत्क्षेपणादिग्रन्थः, यत्र कुत्रापि ग्रन्थः इति उच्यते तत्र कश्चन पारिभाषिकः अर्थः अस्ति न्यायशास्त्रे. अस्तु, इत्युक्ते ग्रन्थः इत्युक्ते बुक् इति नास्ति, वाक्यानां समूहः, वाक्यानां सङ्ग्रहः ग्रन्थः इति. अस्तु, यथा अहम् उक्तवती, उद्देशभागम् उद्देशग्रन्थः इति अपि वदन्ति ते नैयायिकाः. इत्युक्ते उद्देशः इति एकः भागः, तत्र बहु किमपि उद्देश्यते इति सत्यं, किन्तु वाक्यानां समूहः उद्देशग्रन्थः, लक्षणभागं लक्षणग्रन्थः इति वदन्ति, परीक्षाभागं परीक्षाग्रन्थः इति वदन्ति. अत्र उत्क्षेपणादिग्रन्थः इत्युक्ते उत्क्षेपणम् इत्यादि वाक्यानि यत्र सङ्ग्रहितानि तादृशभागः इति अग्रे पश्यतु महोदय. उत्क्षेपण इति पञ्चकर्माणि निर्दिष्टानि खलु, तत् पठतु वाक्यम्. एकनिमिषं, मन्दं मन्दं पठतु.
उत्क्षेपणा कुञ्च कुञ्चन प्रसारण गमनानि पञ्चकर्माणि. उत्क्षेपण अपक्षेपण आकुञ्चनप्रसारण गमनानि पञ्चकर्माणि. पञ्चकर्माणि इति वर्णितवान्, किन्तु अर्धं न जानामि.
तत्र पञ्चकर्माणि इति उक्तं, द्रव्याणि कति द्रव्याणि सन्ति?
नवद्रव्याणि सन्ति.
कति गुणाः सन्ति?
गुणाः चतुर्विंशतिगुणाः सन्ति.
हा, चतुर्विंशतिगुणाः सन्ति, परन्तु पञ्चकर्माणि इति उक्तं. वस्तुतः पञ्चकर्माणि यानि अत्र निर्दिष्टानि, उत्क्षेपण अपक्षेपण, तत्तु जानाति खलु. क्षेपणम् इत्युक्ते थ्रो इति, क्षिपामि, क्षिपति, तादृशः. उत्क्षेपण इत्युक्ते अपरत्र क्षेपणम्, अपक्षेपण अपि तस्मिन्नेव अस्ति. आकुञ्चन, आकुञ्चन इत्युक्ते आकर्षणम्, अट्राक्टिङ्ग्. प्रसारणं तु जानाति इत्युक्ते अपरत्र प्रेषणं, तादृशं प्रसारणम्. एतदुक्त्वा गमनानि इति उक्तवन्तः. एतानि पञ्चकर्माणि केवलं सर्वेषां कर्मणां प्रतिनिधिरूपेण सन्ति, वस्तुतः पञ्चकर्माणि इति न, अनन्तानि कर्माणि सन्ति. अस्तु, रामः उत्क्षिपति इति एककर्म, श्याम उत्क्षिपति इति एककर्म, अपि च एतस्मात् अपि भिन्नं कर्म अपि सन्ति अस्ति खलु पठनं खादनं
श्रेणीकरणं करोति
सत्यं 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 कर्म इति श्रेणीं निर्मीय तस्मिन् सर्वेषां कर्मणां प्रतिनिधिरूपेण पञ्चकर्माणि अन्तर्भूतानि नवद्रव्याणि चतुर्विंशतिगुणाः पञ्चकर्माणि इमानि कोऽपि हा कोऽपि प्रश्नः वा अत्र
भिन्नभिन्नकर्म कर्माणि सन्ति श्रवणम् अस्ति दृश्यमस्ति अतः नास्ति पञ्चकर्माणि न सन्ति
न सन्ति तदेव
श्रवणं श्रवणं कुतः नास्ति श्रवणम् अपि कर्म एव कर्म एव
सत्यं महोदय इति सत्यमेव अनन्तानि कर्माणि इत्युक्ते इन्फैनैट् पठनं श्रवणम् अपि च मम श्रवणं भवतः श्रवणात् एकं भिन्नं कर्म तथा अस्ति यद्यपि तथा अस्ति एतत्तु पञ्चकर्माणि प्रतिनिधिरूपेण कर्मणां प्रतिनिधि इत्युक्ते रेप्रेसेण्टेटिव् अस्तु कर्म इति श्रेणीं निर्मीय तस्मिन् केवलं पञ्चकर्माणि स्थापितवन्तः
अस्मिन् विषये विवादः नास्ति वा संख्यामध्ये
संख्यामध्ये नास्ति
गुणविषये गुणविषये अस्ति गुणविषये चतुर्विंशति वा न्यूनं वा अधिकं वा विवादः अस्ति गुणविषये अस्ति
हा कर्मणः विषये तु सत्ताविषये एव अस्ति अस्तित्वस्य विषये एव अस्ति किल यथा मया उक्तं तत्र कर्म अस्ति न वा इत्यस्य विषये प्रथमतया एव विवादः अस्ति नैयायिकानां मध्ये अस्तु सङ्ख्याया तस्य सङ्ख्या कियती अस्ति इति भिन्नः वार्ता सत्त्वस्य विषये एव किञ्चित् विवादः अस्ति अग्रे गत्वा किञ्चित् पठेम तस्य विषये अस्तु अस्तु वर्गीकरणार्थं वर्गीकरणं कृत्वा केवलं पञ्चकर्माणि इति निर्दिष्टवन्तः अस्तु श्रीधरन् महोदय अग्रिमवाक्यत्रयं पठतु
पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणम् अग्रिमे लक्षणप्रकरणे भविष्यति सम्प्रति नाम्ना सङ्गीतम् एव भवति इत्युक्ते लक्षणभागे अस्मिन् बहवः उद्देशभागे एव अस्मिन् नाम निर्देशनं एव भवति गुणानां कर्मणां विस्तृतं इत्युक्ते डीटेल्स् लक्षणभागे भविष्यति
हा इत्युक्ते द्रव्यस्य लक्षणं किं रूपस्य लक्षणं किं पृथिव्याः लक्षणं किम् एतेषां चर्चा लक्षणभागे अत्र तु केवलं नाम्ना सङ्कीर्तनम् अथवा उद्देशः अस्तु महोदय अग्रिमवाक्यं
तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य स्पष्टसङ्ख्या त्रीणि अयमर्थः विवक्षितः तत्र सर्वे गुणः गुणसमावयः अन्यपदार्थः द्रव्ये एव तिष्ठन्ति प्रथमे दृष्टवन्तः
सर्वे गुणादयः इत्युक्ते
गुणादय गुण कर्म समवाय इति
हा गुणकर्म सामान्यं विशेषः समवायः अभावः सर्वे द्रव्ये वर्तन्ते
द्रव्ये तिष्ठन्ति इति पूर्व पूर्वे वयं दृष्टवन्तः
पूर्वे पूर्वं वयं दृष्टवन्तः तस्य अर्थः अयम् अर्थः विवक्षितः अग्रे गच्छतु
अग्रे चित्रम् अस्ति
अस्तु चित्रात् पूर्वं चित्रस्य विश्लेषणात् पूर्वं कः अर्थः विवक्षितः अयम् अर्थः विवक्षितः इति भवान् पठितवान् किल सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयम् अर्थः विवक्षितः कः अर्थः विवक्षितः इति अग्रिमवाक्यमस्ति पठतु
अग्रिमवाक्यं तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तत् वाक्यार्थः किन्तु द्रव्ये अवश्यं तिष्ठन्ति गुणादौ यथायथं तिष्ठन्ति इति अर्थः सर्वे द्रव्ये तिष्ठन्ति विवादः नास्ति संशयः एव नास्ति किन्तु द्रव्ये अवश्यं तिष्ठन्ति सर्वे जानन्ति गुण आदौ यथायथं तिष्ठन्ति इति अर्थः गुण आदौ यथायतं यथायतम् अहं न जानामि
इत्युक्ते यथासङ्गं यथा प्रासङ्गिकं तिष्ठन्ति अस्तु गुणादयः सर्वे द्रव्ये तिष्ठन्ति इति वयं जानीमः द्रव्ये सर्वं तिष्ठति इति तु सत्यं किल द्रव्ये अवश्यं तिष्ठन्ति परन्तु तस्य अर्थः अयं नास्ति यत् अपरेषु न तिष्ठन्ति इति द्रव्ये एव तिष्ठन्ति इत्यस्य अर्थः अयं यत् द्रव्ये अवश्यं तिष्ठन्ति इति सत्यं परन्तु केवलं द्रव्ये तिष्ठन्ति न इति न अपरेषु पदार्थेषु अपि तिष्ठन्ति इति अष्टमपृष्ठस्य चित्रमस्ति अस्तु वेणुगोपाल् महोदय अधुना वदतु द्रव्ये किं किम् अस्ति अष्टमपृष्ठे चित्रमस्ति खलु तत्र द्रव्ये किं किम् अस्ति
अस्तु द्रव्ये द्रव्यं द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः सप्तमी पदार्थाः द्रव्ये भवन्ति इत्यर्थः अस्तु द्रव्ये सर्वाणि सन्ति इति अर्थः
हा समीचीनम् इति एव अर्थः द्रव्ये सर्वे एव तिष्ठन्ति इत्यस्य एकः अर्थः सः द्रव्ये अवश्यं तिष्ठन्ति इति परन्तु अग्रे पश्यामः राजी भगिनी गुणे किं किम् अस्ति इति वदति वा
गुणे सामान्यं समवायः अभावः त्रीणि एव अस्ति त्रीणि एव सन्ति
त्रयः पदार्थाः
सन्ति गुणे
तथा च इति पठतु
तथा च गुणे द्रव्यं गुणः कर्म विशेषः च नास्ति इत्यर्थः गुणे द्रव्यं नास्ति कर्म नास्ति विशेषः नास्ति विशेषः नास्ति
अपि च गुणे स्वयं गुणः अपि नास्ति
गुणे स्वयं गुणः अपि नास्ति आं भगिनि गुणः अपि नास्ति
हा इत्यस्य अर्थः यत् गुणादौ इत्युक्ते गुणकर्मसामान्यविशेषः इत्यादौ यथायथं तिष्ठन्ति इत्युक्ते यथासङ्गं यथा प्रासङ्गिकं यथा उचितं तथा तिष्ठन्ति इति वयं पश्यामः खलु द्रव्ये सप्तपदार्थाः अपि सन्ति द्रव्ये द्रव्यमपि अस्ति इदानीम् उत्पीठिकायां मम दूरवाणी अस्ति उत्पीठिका अपि द्रव्यं दूरवाणी अपि द्रव्यं तर्हि द्रव्ये द्रव्यम् अस्ति इति वक्तुं शक्यते द्रव्ये गुणः अस्ति इत्युक्ते उत्पीठिका अस्ति उत्पीठिकायाः रूपम् अथवा वर्णः अस्ति कृष्णवर्णः इति तर्हि रूपमिति गुणः अपि अस्ति तर्हि द्रव्ये गुणः अस्ति द्रव्ये कर्म अपि भवति इत्युक्ते न्यायशास्त्रानुगुणं सर्वं द्रव्यं मम शरीरं द्रव्यं भवतां शरीरं द्रव्यम् अस्मासु कर्म अस्ति खलु वदनमिति एककर्म श्रवणमिति एककर्म तत्सर्वं द्रव्ये वर्तते सामान्यम् इत्युक्ते किं सामान्यमपि द्रव्ये अस्ति इत्युक्ते किम् इति अग्रे पश्यामः विशेषः इत्युक्ते कः इति अग्रे पश्यामः समवायः अभावः सर्वं द्रव्ये अस्ति परन्तु गुणे किं किम् अस्ति भगिनि पुनः
सामान्यं समवायः अभावः त्रयः एव सन्ति गुणे गुणः एव नास्ति कर्म नास्ति विशेषः नास्ति द्रव्यं नास्ति
कर्मणि किमस्ति
कर्मणि सामान्यमस्ति समवायः अस्ति अभावः अस्ति कर्मणि कर्म एव नास्ति द्रव्यं नास्ति गुणः नास्ति कर्म नास्ति विशेषः नास्ति
विशेषः
नास्ति इत्यर्थः
सामान्ये
समवायः अभावः एव स्तः तथा च सामान्यद्रव्यं गुणः कर्म सामान्यं विशेषः च नास्ति इत्यर्थः
हा बहु समीचीनमस्ति भगिनि अस्तु अग्रे का अस्ति ज्योति भगिनी अस्ति वा ज्योति भगिनी नास्ति चेत् अस्तु श्रीधरन् महोदय समापयतु
विशेषे समवायः अस्ति अभावः अस्ति विशेषे अन्यपदार्थाः न सन्ति विषये पूर्वतः पञ्चपदार्थाः न सन्ति इति अर्थः समवाये अभावः एव अस्ति समवाये षट् पदार्थाः न सन्ति इति अर्थः. अभावे अपि अभावः एव अस्ति, अभावे षट् पदार्थाः अन्यपदार्थाः न सन्ति इति अर्थः.
हा समीचीनम्. इति एव यथायथं तिष्ठन्ति इत्युक्ते यथा औचित्यं तिष्ठन्ति गुणादौ पदार्थाः, केवलं द्रव्ये अवश्यं तिष्ठन्ति सर्वे पदार्थाः इति अर्थः आगतः. अस्तु अस्तु, अग्रिमम् एकं परिच्छेदं पठित्वा समापयामः. तत्र किञ्चित् सामान्यस्य परिचयः विद्यते. सरला भगिनी पठति वा?
आं भगिनि. द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णेन च इदम् आयाति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदाय यथा निरूपितः पृष्ठ द्वितीये तथा गुणत्व सामान्यम् आदाय गुणसमुदाय कर्मत्व सामान्यम् आदाय कर्मसमुदाय निरूपयितुं शक्यते. इदानीं वयं दृष्टवन्तः प्रथमे कोष्ठे एकादश चित्रे द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः द्रव्ये सर्वे पदार्थाः वर्तन्ते अर्थवर्णेन च इदम् आयाति. सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते. यदि सामान्यं पदार्थं वयं सामान्यं पदार्थं स्वीकृत्य वयं पश्यामः गुणे कर्मणे सामान्य गुणे कर्मणे द्रव्ये सामान्यम् अस्ति, त्रिषु पदार्थेषु सामान्यं वर्तते. तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदाय यथा निरूपितः. सर्वेषु द्रव्येषु गुणम् अस्ति, सर्वे गुणपदार्थ सर्वेषु द्रव्येषु वर्तते. अतः गुणम् आदाय वयं द्रव्यस्य समुदाय अस्ति नव द्रव्याणि यथा वयं दृष्टवन्तः. गुण स्वीकृत्य तस्य निर्देशं लक्षणं कानि सन्ति लक्षणानि कानि सन्ति तस्य निरूपम् अग्रे लक्षणे भागे आगच्छति. वयं प्रथमे पृष्ठे दृष्टवन्तः प्रत्येकद्रव्यस्य विशिष्टगुणः किम् अस्ति, यथा पृथ्वीं गन्धः अस्ति, तेजः उष्णम् अस्ति, आपः शैत्यम् अस्ति, आपे शैत्यम् अस्ति, वायोः स्पर्शम् अस्ति, आकाशे शब्दः अस्ति, मनसि संख्या दिक्संख्या कालसंख्या आत्मनि ज्ञान अर्थात् तथैव सर्वेषु द्रव्येषु विद्यमानगुणरूपपदार्थम् आदाय द्रव्यसमुदाय निरूपित इति अर्थः अस्ति तत् वाक्यस्य. तथा गुणत्वं सामान्यम् आदाय गुणसमुदाय कर्मत्वं सामान्यम् आदाय कर्मसमुदाय निरूप्यतुं शक्यते. तद्वत् गुणत्वम् आदाय गुणस्वीकृत्य सामान्यं तस्य गुणत्वं सामान्यम् आदाय गुणस्य चतुर्विंशतिगुण तेषां निरूपणं कथं भवति. कर्मत्वं सामान्यम् आदाय कर्मसमुदाय कर्मत्वं कर्मसमुदाये सामान्यम् आदाय कर्मत्वं कथं निरूपणं भवति तस्य विवरणं भवति.
हा हा समीचीनम्. इति अग्रिमपदार्थः अस्ति सामान्यम् इति, खलु? द्रव्यं जातं, गुणः कर्म, अग्रिममस्ति सामान्यं.
सामान्यं
यथा भगिनी उक्तवती न्यायशास्त्रे आदाय आदाय इति श्रूयते. आदाय इत्युक्ते स्वीकृत्य गुणरूपं पदार्थम् आदाय. अत्र रूपम् इत्युक्ते गुणः इति न, गुण इति पदार्थम् आदाय इति चिन्तयतु. गुण इति पदार्थम् आदाय द्रव्यसमुदायः अथवा द्रव्यश्रेणी निर्मिता. तद्वत् गुणत्वम् इति धर्मम् अथवा सामान्यम् अग्रे गत्वा पश्येम सामान्यम् इत्युक्ते किमिति पश्येम, किन्तु गुणसमुदायः अथवा गुणश्रेणी कथं निर्मीयते इति चेत् गुणत्वसामान्यम् आदाय कर्मसमुदायः अथवा कर्मश्रेणी कथं निर्मीयते इति चेत् कर्मत्वसामान्यम्
आदाय
हा इति विषयः अग्रे आगच्छति. सामान्यम् इत्युक्ते किम् इति अग्रिमसप्ताहस्य विषयः. परिचयत्वेन अत्र सामान्यपदस्य किञ्चित् प्रयोगः कृतः. कोऽपि प्रश्नः वा?
किमपि द्रव्ये गुणं नास्ति चेत् कथं निरूपितः, कथं निरूपणं कथं?
तद् द्रव्यमेव नास्ति तदा.
द्रव्ये अस्ति ब्रह्मम् अस्ति, निर्गुणं ब्रह्मं वदति, तत्मे गुणं नास्ति, गुणः नास्ति
इत्युक्ते न्यायशास्त्रे. महोदय प्रथमपृष्ठे पश्यतु, आत्मा इति पश्यति खलु.
आत्मा एक द्रव्यं, गुणः नास्ति
आत्मनि. अस्ति गुणः, किं कः गुणः अस्ति आत्मनि? प्रथमपृष्ठे पृष्ठे पश्यतु. ज्ञानमस्ति. आत्मा इत्युक्ते जीवात्मा परमात्मा उभयोः स्वीकारः, ईश्वरः इति यद्वदामः सः अपि आत्मा परमात्मा. अस्तु, अस्माकं
निर्गुणं ब्रह्मन् श्रुतवान् इति
सत्यं सत्यं, वेदान्तस्य विचारः स्यात् खलु. तस्मिन् शास्त्रे निर्गुणब्रह्म अस्तु, तस्य पदस्य अर्थः एव गुणातीतः, तस्मिन् गुणः नास्ति, निर्गुणः इति. परन्तु नैयायिकां मतानुगुणम् एतावत् पर्यन्तं तु यावत् मया पठितम्, आत्मा इत्युक्ते जीवात्मा, यथा अस्माकम् आत्मा, अस्माकम् आत्मनि ज्ञानमस्ति. परमात्मा इति अपि अस्ति, सर्वेषाम् आत्मनां सङ्ग्रहः रूपेण परमात्मा इति अस्ति, तस्मिन्नपि ज्ञानम् इति गुणः वर्तते इति नैयायिकाः वदन्ति. भवतः विचारः वेदान्तशास्त्रस्य वा अन्येषां विचारः?
वेदान्तशास्त्रे अहं श्रुतवान् इति, तस्य गुणः एव नास्ति, तस्मिन् विषये चर्चा एव अस्ति. सै वै रामानुज वदति गुणः अस्ति इति.
हा तथा स्यात् वेदान्तशास्त्रेषु, परन्तु नैयायिकानां मतानुगुणं द्रव्यम् इत्युक्ते, द्रव्यम् इत्यस्य क्षेत्रमेव बहु बृहदस्ति. पश्यतु, द्रव्यम् इत्यस्मिन् जीवितवस्तूनि अपि अन्तर्भूतानि, यथा अहमपि द्रव्यं, भवान् अपि द्रव्यं. केवलं द्रव्यम् इत्युक्ते उत्पीठिका, घटः, पटः इति न, सर्वं द्रव्यम्, आकाशः द्रव्यं, कालः द्रव्यं. द्रव्यमिति पारिभाषिकशब्दः न्यायशास्त्रे, तस्मिन् आत्मा अपि अन्तर्भूतः, अपि च यत्किमपि द्रव्यमस्ति तस्मिन् गुणः भवत्येव, आत्मनि अपि गुणः भवत्येव, आत्मनि अपि परमात्मनि अपि जीवात्मनि अपि ज्ञानम् इत्यादयः गुणाः भवन्ति एव.
वाक्यम् अस्ति, कोऽपि नास्ति तत्र.
कुत्र
वाक्यम्? वाक्यम् अस्ति
आकाशः.
आकाशः न, आकाशः न, आकाशे वाक्यूम् अस्ति, द्रव्यम् एक द्रव्यं, वाक्यूम् गुणः एव नास्ति, गुणः नास्ति.
तर्हि तद् वाक्यूम् द्रव्यमेव नास्ति तेषां मतानुगुणं, मम मतानुगुणं न, नैयायिकानां न्यायशास्त्रे तद् किमपि यद्वदति वाक्यूम् इति, तस्मिन् गुणः नास्ति चेत् तद् द्रव्यमेव नास्ति इति ते वदन्ति. आकाशः अपि वाक्यूम् नास्ति, आकाशे शब्दः इति गुणः वर्तते इति तेषां मतं, मतम् इत्युक्ते ओपिनियन् अथवा सिद्धान्तः इति वक्तुं शक्यते. अस्तु
अस्तु
अस्तु, तर्हि अन्य कोऽपि प्रश्नः वा
भगिनि? मम ऐ जस्ट् हेव् आर्गनैज़ेशन् क्वेश्चन् अबौट् if I want to attend like this less advanced class, is it you divided class into, right?
Bagini, so in Nyaya there is no less or more advanced, the same lessons will happen all across the board in all classes.
Okay,
but you mean to say Bhasha Varga, there are other options. I'll write to you, or you can write to me, we'll discuss about it.
And where I can listen the first lecture?
I will send you emails, Pagini.
Uh-huh. And,
are you on the...
Yes, I...
आना भगिनि एकनिमिषः एकनिमिषः विल् स्टाप् द रेकार्डिङ्ग् अण्ड् टाक् अन्य कोऽपि प्रश्नः वा अस्तु नो चेत् विरमामः धन्यवादः अपि च गृहपाठरूपेण कृपया वारं वारं वदामि जनानां पठनक्लेशः अस्ति न्यायशास्त्रस्य भाषाशैली काचित् भिन्ना अस्तु यदा वयं पश्यामः अत्र निष्ठा निरूपित आधेयता आश्रयः इत्यादिकम् अस्ति तर्हि तेषां भाषाशैली काचित् भिन्ना पुनः पुनः कृपया गृहे पठन्तु अस्तु नवपृष्ठानि अधीतानि तानि कृपया पठन्तु तेन अस्माकमेव सौकर्यः जायते वर्गे पठनार्थम् अवगमनार्थम् अस्तु
भगिनि राजी अस्मि अत्र आगामि सोमवासरे अहं भारतं गमिष्यामि
भगिनि एकनिमिषं